मास्टर। ॐ सहनावतु सहनौ भुनक्तु सह वीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्तिः। What's happening?
तत्र सम्यक्तया श्रूयते मम ध्वनिः
महोदय
श्रूयते?
अस्तु अस्तु, मम किञ्चित् सन्देहः आसीत्, अस्तु श्रूयते चेत् समीचीनम्। अस्तु तर्हि पठामः। तर्हि तत्र वेदा भगिनी आरम्भं करोति वा? तत्र परसवर्णसन्धिः इति
करपत्रे महोदय, क्षम्यताम्।
वदतु भगिनि।
महोदय, हमारे यहाँ ना मुंबई में पानी की थोड़ी समस्या है, तो अभी पानी आ रहा है, तो मैं थोड़ा पानी भर के ज्वाइन हो जाओ कक्षा में, सुनूंगी।
जरूर जरूर जरूर, चिंता चिंता,
पानी नहीं था।
हाँ, चिंता मत करो,
वेरी इम्पोर्टेंट।
हाँ वेरी इम्पोर्टेंट। हाँ हाँ
हाँ, मैं सुनती हूँ, मैं पानी भर के फिर ज्वाइन। थैंक यू सर।
अनुस्वारस्य ययी परसवर्णः अष्टमे अध्याये चतुर्थपादे अष्ट पञ्चदश अष्टोदिक किं वदामि 58
अष्टपञ्चाशत्
अष्टपञ्चाशत् वा, ओके, अष्टपञ्चाशत्तमं सूत्रमस्ति। अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे, ययि इति ययि परे अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे। परस्य सवर्णः परसवर्णः षष्ठी तत्पुरुषः, अनुस्वारस्य षष्ट्यन्तं, ययि सप्तम्यन्तं, परसवर्णः प्रथमान्तं, त्रिपदमिदं सूत्रम्। यै प्रत्याहारे षकार सकार हकार एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः। यै प्रत्याहारे ष सः एतान् वर्जयित्वा सर्वे हल् वर्णाः अन्तर्भूताः। तयोर्यवावचि संहितायां, तयोर्यवावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रम्। अनुस्वारस्य परसवर्णः ययि संहितायाम् इति अस्ति। तत्र अग्रे पठामि वा? अनुस्वारस्य स्थाने परसवर्णादेश भवति ययि परे इति उक्तं सूत्रे। ययि इत्युक्ते यै प्रत्या यै प्रत्याहार, यै प्रत्याहारे सर्वे हल् वर्णाः अन्तर्भूताः ष सः वर्जयित्वा, एतान् वर्जयित्वा अन्ये सर्वे हल् वर्णाः यै प्रत्याहारे अन्तर्भूताः। सो यत्र पदे पदम् इति वक्तुं शक्यते वा? यदि पदं परे 8448 पदस्य इति अधिकारः, ऐ थिङ्क्
यत् 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 अस्ति तद् तत्र एकवारं पठित्वा अग्रिमवाक्यं पठित्वा तत्र सोपानेन तत्र क्रमशः गच्छतु, तदा क्लेशः मा भवति न भवति। यदि इतः ततः गच्छति चेत् क्लेशः भवति। तर्हि सौलभ्येन तत्र सौलभ्यार्थमेव करपत्रं लिखितं खलु, तर्हि मनसि श्रद्धा भवेत् एतत् सुलभम् अस्ति, यत् अस्ति तस्य अवगमनं भवति इति। हा
अस्तु, तयोर्यवाचि संहितायाम् इति सूत्रेण संहितायाम् इति तस्य अधिकारः अनुवृत्तिसहितसूत्रं दत्तं। दत्तम् अनुस्वारस्य परसवर्णः, अनुस्वारस्य परसवर्णः यदि यै प्रत्याहारस्थवर्णः अस्ति चेत् संहितायां तत्र किं वदति? अनुस्वारस्य परसवर्णः यै संहिता, अनुस्वारस्य परे यै प्रत्याहारस्थवर्णः अस्ति चेत् तस्य पर सवर्णः
भगिनी 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 तत्र तत्र कुत्रापि गन्तव्यम् अस्ति वा इदानीमेव भवती?
न
न तर्हि शीघ्रं नास्ति चेत् एकमेकं पठित्वा पततु भगिनि. तत्र देर् इस् नो हरि. तर्हि परस्य सवर्णः एकमेकं पदं तस्य विवरणं तत्र दत्तं. तर्हि एकमेकं दृष्ट्वा नाम अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे इति वाक्यं. तत्र परसवर्णः इत्युक्ते किम् इति उक्तं खलु. एकमेकम् उक्तं. तर्हि एकमेकं पठित्वा विवृणोतु.
किं वदामि महोदय?
नाम परसवर्णः परसवर्णः इति
परसवर्णः इत्युक्ते किम् इति वदामि वा?
अत्र अत्र एव दत्तमस्ति. अतः अन्यत् किमपि यत् अस्ति एकमेकं वाक्यं पठित्वा वदतु भगिनि. तत्र परसवर्णस्य अग्रे वाक्यम् अस्ति, तत् एकवारं पठतु.
मुं योगच्छति मुञ्चति
भगिनि 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 यत् भवती पठितवती तत्र एव अस्ति खलु. प्रथमवाक्यं पठतु पुनः. तर्हि
अनुस्वारस्य स्थाने परसवर्णादेशो भवति ययि परे
इति अस्ति वाक्यं खलु. तर्हि तत्र अग्रिमवाक्यं पठतु किम् अस्ति.
परस्य सवर्णः परस्य सवर्णः परसवर्णः षष्ठी तत्पुरुष अस्ति.
तर्हि परसवर्णः इत्युक्ते परस्य
सवर्णः
सवर्णः अस्तु. अग्रे
अनुस्वारस्य षष्ट्यन्तं ययि सप्तम्यन्तं परसवर्णः प्रथमान्तं त्रिपदमिदं सूत्रं. तत् इत्युक्ते तत्र
इदानीं भवती एव वदतु तत्र अनुस्वारस्य षष्ट्यन्तम् इति. यदि भवती पठति क्रमः एतदेव अस्ति. तत् विवरणं नाम षष्ट्यन्तम् इत्युक्ते
स्थानि
तावदेव. अतः क्लेशः मास्तु भगिनि. तत्र भवत्यां विश्वासः भवेत् खलु अहं करोमि इति. किमर्थं तत्र अग्रे
अनुस्वारस्यन्तम् इत्युक्ते अनुस्वार पदस्य स्थाने अनुस्वारस्थाने
अन्यस्य आदेशः भवति.
ययि सप्तम्यन्तम् इत्युक्ते परे किं वदामि पूर्व निपातने. अय्यो वाट् इस् दट् यै परसवर्ण इत्युक्ते परे
ययि सप्तम्यन्तं तस्य विवरणं करोतु.
ययि
सप्तम्यन्तं स्वीकृत्य करोतु भगिनि.
यै प्रत्याहारः तस्य परे
इति उक्तवती. ययि यै तत्र तर्हि परकार्यं वा पूर्वकार्यं वा?
परकार्यं पूर्वनिमित्तम् इति न पूर्वनिमित्तं परकार्यं सप्तम्यर्थम् इत्युक्ते
पूर्वकार्यं
पूर्वकार्यं परनिमित्तं वा?
परनिमित्तम्.
ऐ आल्वेस् गेट् कन्फ्यूस् बिट्वीन्
दट्. अस्तु भगिनि, चिन्ता मास्तु. इदानीम् अग्रे
पूर्वकार्यं परनिमित्तम् अस्ति वा? ओके. परसवर्णः प्रथमान्तम् इत्युक्ते परसवर्णः आदेशः भवति. परसवर्णः आदेशः प्रथमान्तम् इत्युक्ते आदेशः आगमः अपि च
नामकरणम्. अस्तु, त्रिपदमिदं सूत्रम्.
आम्
अस्तु अग्रे.
सो यै प्रत्याहारे ष ष सः एतान् वर्जयित्वा तत्र यै प्रत्याहारवर्णः कः अस्ति इति तत्र उक्तं. यै प्रत्याहारे ष ष सः एतान् वर्जयित्वा सर्वे हल्वर्णाः अन्तर्भूताः इत्युक्ते सर्वे हल्वर्णाः यै प्रत्याहारे अस्ति ष स स वर्जयित्वा. अन्यत् किमस्ति
अग्रे?
तत्पश्चात् तयोर्यवाचि संहितायाम् इत्यनेन संहितायाम् इत्यस्य अधिकारः अस्ति. ओके. अनुवृत्तिसहितसूत्रम् अनुस्वारस्य परसवर्णः ययि संहितायाम् इति
अस्ति खलु. तावत् परस्य सवर्णः षष्टि तत्पुरुष, किन्तु परसवर्णः इति प्रथमान्तपदं खलु परसवर्णः इति प्रथमान्तपदम्. इदानीं तत्र उदाहरणम् इदानीं पश्यतु तत्र किमस्ति.
ओके, मुम् योगः चति, तत्र पूर्वपदे मुम् अनुस्वारः अस्ति, मुम् चति, तत्र एतत् सूत्रम् उपयोगं कृत्वा किं वदामि, अनुस्वारस्य स्थाने परसवर्णादेशो भवति यै परे. चति चति चकार यै वर्णः अस्ति, यै प्रत्याहारे अस्ति चकारः. पूर्वपदे अनुस्वारः अस्ति, तदेव सूत्रं कार्यं करोति. अनुस्वारस्य स्थाने परसवर्णादेशः भवति इत्युक्ते चकारस्य अन्तिम अनुनासिकवर्णः ङकार च च ज ज ञ तदाय अनुस्वारस्य
आदेशः, तस्य आदेशः भवति
भवति.
तावदेव सुलभतया भवती कृतवती खलु.
सोरि महोदय.
न न, भवती सम्यक्तया कृतवती भगिनी, चिन्ता मास्तु. तदेव वक्तुम्
इच्छिष्टमासि,
अतः एव उक्तवान् कुत्रापि गन्तव्यं नास्ति, शीघ्रं शीघ्रेण कर्तव्यम् इति नास्ति. अतः नाम तत्र सन्तोषेण करोतु, चिन्ता मास्तु. यदि अस्तु भगिनि, समीचीनं वा?
आम् महोदय, धन्यवादः.
समीचीनं. तर्हि तत्र परसवर्णः नाम तस्य आदेशः. परसवर्ण इत्युक्ते यः परवर्णः अस्ति तस्य सवर्ण अनुनासिकवर्णस्य आदेशः इति एव खलु. तावदेव, परस्य सवर्णः, परसवर्णः नाम परं परः यः अस्ति तस्य सवर्ण अनुनासिकस्य आदेशः इति. समीचीनम्.
आं महोदय,
धन्यवादः भगिनि. अस्तु अग्रे, अस्तु अग्रे, तत्र शोभा भगिनी अग्रे.
आं महोदय, वापदान्तस्य इति सूत्रम् अष्टमाध्याये चतुर्थपादे नवपञ्चाशत्तमं सूत्रं. पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे. अनुस्वारस्य ययि परसवर्णः इत्यस्य बाधकसूत्रम् अनेन अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः. वा अव्ययपदं पदान्तस्य षष्ठ्यन्तं द्विपदमिदं सूत्रम्. अनुस्वारस्य ययि परसवर्णः इत्यस्य पूर्णतया अनुवृत्तिः तयोर्वावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः. अनुवृत्तिसहितसूत्रं पदान्तस्य अनुस्वारस्य वा परसवर्णः ययि संहितायाम्. इदानीं तत्र वा पदान्तस्य इति सूत्रस्य प्रसक्तिः. पदान्तस्य अनुस्वारस्य परसवर्णादेशो वा भवति ययि परे. पूर्वसूत्रे नित्यम् इति उक्तम्. इदानीम् इत्युक्ते तत्र अपदान्ते अपि अपदान्ते भवति. पूर्वस्मिन् उदाहरणे मुञ्चति इति अपदान्ते इत्युक्ते पदस्य मध्ये, न तु अन्ते, मध्ये अस्ति. किन्तु इदानीं पदान्तस्य प्रसक्तिः, अतः तत्र पदं भवेत् तदनन्तरं किमपि वर्णः भवेत्, यै वर्णः, क्षम्यतां, यै वर्णः भवेत्. अतः तत्र पदान्तस्य अनुस्वारस्य परसवर्णादेशो इदानीं वा इति दत्तं तत्र, इत्युक्ते वैकल्पिकः इति वैकल्पिक आदेशः भवति पुनः ययि परे एव. अपि च अनुस्वारस्य ययि परसवर्णः इत्यस्य बाधकसूत्रम् इत्युक्ते पूर्वस्य सूत्रस्य बाधकसूत्रं भवति इदं सूत्रम्. अनेन पदान्ते परसवर्णादेशः वैकल्पिकः न तु नित्यः. वा इति अव्ययपदं सूत्रे पदान्तस्य इति षष्ठ्यन्तं द्विपदं सूत्रम्. अनुस्वारस्य ययि परसवर्णः इत्यस्य पूर्णतया अनुवृत्तिः अस्ति अस्मिन् सूत्रे तयोर्वावचि संहितायाम् इत्यस्मात् संहिताम् इत्यस्य अधिकारः अन्ते पदान्तस्य अनुस्वारस्य अपरसवर्णः ययि संहितायां पुनः ययि इति सप्तमी विभक्तिः अतः सप्तमी विभक्तिः अस्ति चेत् पूर्वकार्यं यै प्रत्याहारस्थवर्णः पुनः इत्युक्ते सर्वाणि व्यञ्जनानि ष ष ह विहाय अपि च संहितायाम् इत्युक्ते जानीमः यदा संहिते द्वयोः वर्णयोः संहिता सन्निधिः भवति तदा इति अपि च इदानीम् उदाहरणमस्ति गृहं योगः च इति गृहम् इति पदमस्ति अतः पदस्य अन्ते मकारः अस्ति मकारात् परं यै प्रत्याहारस्थवर्णः च इति अस्ति इदानीं तत्र मकारस्य प्रथमं तु अनुस्वारः भवति मनुस्वारः इत्यनेन अनुस्वारस्य आदेशः भवति तदनन्तरम् अनुस्वारस्य स्थाने परसवर्णस्य आदेशः इत्युक्ते अस्मिन् उदाहरणे पुनः च इति एव अस्ति च वर्गीय अनुनासिक व्यञ्जनस् व्यञ्जनमेव खलु व्यञ्जनस्य आदेशः भवति अतः तत्र अनुस्वारस्य स्थाने च च झ ञ इत्यस्य किम् आदेशः क्षम्यताम् आदेशः भवति अतः गृहञ्च इति रूपं भवति किन्तु एतत्तु वैकल्पिकसूत्रम् अतः तदस्ति एकस्मिन् पक्षे गृहञ्च इति भवति नो चेत् अनुस्वारः तिष्ठति किमपि परिवर्तनं न भवति गृहं च इति पृथक्तया अपि वक्तुं शक्नुमः किन्तु तत्र मकारस्य तु मोनुस्वारः इत्यनेन अनुस्वारः भवति एव अतः तस्मिन् उदाहरणे गृहं च इति दर्शितम् अस्ति
तावत् समीचीनं भगिनि धन्यवादः
धन्यवादः
धन्यवादः इदानीम् अग्रे नरेश् महोदय
यकारः वकारः लकारः परः चेत् अनुस्वारस्य स्थाने क्रमेण यकार अनुनासिक कारः वकारः अनुनासिक कारः लकारः अनुनासिक कारः च भवति अत्र दत्तमस्ति सर्वे वर्गीयव्यञ्जनानि सन्ति चेत् तु तत्र पञ्चम वर्ण आगच्छति तत् अनुनासिकवर्ण आगच्छति परन्तु यत्र यकारः वकारः लकारः अस्ति तत्र किं भवति तत्र यकारः वकारः लकारः स्थाने अत्र तत् चन्द्रबिन्दु आगच्छति यकारः तत्र चन्द्रबिन्दु यकारः अनुनासिका अस्ति अग्रे तु कारः अस्ति अतः यङ्कारः वङ्कारः लङ्कारः तत् भवति यकारवकार लकारः अस्ति चेत् अग्रे
तत्र उदाहरणानि यानि आसन् पूर्वं तत्र तु वर्गीयव्यञ्जनम् एव आसीत् खलु अग्रे प्रत्याहारस्य वर्गीयव्यञ्जनं नाम तत्र च अथवा उदाहरणद्वये अपि तत्र चकारः एव आसीत् खलु वर्गीयव्यञ्जनं
अत्र यकारवकार लकार तत्तु वर्गीयव्यञ्जनानि न सन्ति
अपि तत्र प्रायशः रकारः अपि भवेत् खलु यतोहि तत्र यै प्रत्याहारे श श स ह वर्जयित्वा इति अस्ति तर्हि तत्र रकारः अपि भवेत् खलु
भवेत् परन्तु अहं चिन्तयामि रकारस्य रेफ तस्य तत् अनुनासिका नास्ति अतः तत् अत्र अत्र न दत्तम् अस्ति प्रायः अग्रे
अग्रे प्रायः तस्य अस्तु हा तत्र पश्यामः हा किन्तु इदानीं यकारः वकारः लकारः अस्ति चेत् तत्र हा उदाहरणं पश्य पठित्वा वदतु महोदय किं किं भवति इति
सं योग यमः अत्र सम् अस्ति सं तत् मकारस्य स्थाने प्रथमः तु अनुस्वारः अस्ति सं योग यमः अत्र अनुस्वारस्य स्थाने विकल्पेन भवति प्रथमा तु दत्तमस्ति यकार अपि च अनुनासिका अस्ति संयमः भवति विकल्पेन केवलं अनुस्वारः अस्ति संयमः भवति संयमः संयमः भवति संयोगं यमः अग्रे संयोग वादं संयोगवादम् अत्र परे वकारः अस्ति वकार यै वर्णः अस्ति अतः प्रथमा तु सम् अनुस्वारः भवति सन् भवति अग्रे संयोगवादम् अत्र अनुस्वारस्य स्थाने वकारः अपि च अनुनासिकः आगच्छति अतः संवादं भवति विकल्पेन केवलं अनुस्वारः अस्ति संवादं भवति तृतीया अस्ति संयोगलापः अत्रापि प्रथमा तु मकारस्य स्थाने अनुस्वारः आगच्छति संयोगलापः अग्रे अनुस्वारस्य स्थाने लकारः अनुस्वारस्य अनुनासिकलकारः आगच्छति अतः संलापः भवति विकल्पेन अनुस्वारः भवति संलापः भवति
अस्तु महोदय अग्रे
अग्रे ध्येयं यत् सम् अस्ति उपसर्गः सम् इति उपसर्गः अस्ति अतः इदं सर्वं कार्यं पदान्ते मोनुस्वरः वा पदान्तस्य इत्याभ्यां सूत्राभ्याम् अत्र द्वे सूत्रः स्तः मोनुस्वरः अपि च वा पदान्तस्य तस्य अत्र आगच्छति अतः सम् अत्र उपसर्गः अस्ति सम् उपसर्गः अस्ति चेत् कार्यं कुतः कथं भवति तत् दत्तम् अस्ति मोनुस्वारः अपि च वा पदान्तस्य मोनुस्वारः तु पदं मध्ये अस्ति वा पदान्तस्य तत् पदस्य अन्ते भवति अतः तत् सम् उपसर्गः अस्ति चेत् तत् भवति
हा समीचीनं महोदय अस्तु हा उत्तमं तर्हि तत्र इदानीं तत्र यकारः वकारः लकारः परः अस्ति चेत् तत्र किं रूपं भवति इति एतावत् उक्तम्। अस्तु समीचीनं, हा अस्तु अग्रे इदानीं तत्र
महोदय तत्र अहं चिन्तयामि उपसर्गः पदम् उपसर्गाः सर्वे उपपदानि अतः तत्र पदान्ते कार्यम् इति उक्तं मोनुस्वरः इति पदान्ते कार्यं करोति इति मन्ये वा पदान्तस्य इति तु पदान्ते एव कार्यं करोति मोनुस्वरः अपि इदं सर्वं कार्यं पदान्ते इति दत्तम् उपसर्गः पदम् इति परिगण्यते
सत्यं भगिनि हा सत्यं भगिनि हा अतः एव तत्र सम् इति उपसर्गः अस्ति अतः पदम् इति स्वीकरणीयं
मत्वा आम् अतः मोनुस्वारः अपि पदान्ते इति
पदान्ते इति सत्यं भगिनि हा सत्यं सत्यं भगिनि अतः तत्र इदं सर्वं कार्यं पदान्ते भवति नाम तत्र सम् इति पदम् इति स्वीकृतं सत्यं भगिनि हा तथैव मम अपि भाति सत्यम् धन्यवादः भगिनि हा
धन्यवादः
तदेव तदेव अस्ति हा अस्तु अग्रे वेद भगिनि
आं महोदय चित्र अस्ति तोर्लि तवर्गस्य लकारे परे सवर्णः तोर्लि तवर्गस्य लकारे परे सवर्णः परसवर्णः तोः षष्ट्यन्तं लि सप्तम्यन्तं द्विपदमिदं सूत्रम् अनुस्वारस्य ययि परसवर्णः इत्यस्मात् परसवर्णः इत्यस्य अनुवृत्तिः तयोर्यवाचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं तोः परसवर्णः लि संहितायाम् अस्तु तत्र किं वदति इत्युक्ते तवर्गस्य लकारे परे यदि कोऽपि पदमस्ति पदं न कोऽपि शब्दः अस्ति तकार तवर्ग अन्तिमवर्ण तवर्ग अस्ति तत्परे लकार यदि अस्ति चेत् तत्र तकार तोः परसवर्णः लि संहितायाम् इत्युक्ते तकारस्य
षष्ट्यन्तम् इति उक्तं खलु भगिनि
आम् आम् स्थाने
प्रथमान्तपदं किमस्ति
तोः षष्ट्यन्तं लि सप्तम्यन्तं प्रथमान्तपदं
सप्तमी नाम तोः सप्तमी तत्र षष्ठी विभक्ति खलु
आम् आम्
तर्हि प्रथमाविभक्तिरूपं किम् अस्ति
प्रथम परसवर्णः इति
न पदं अत्र तोः इति पदस्य तत्र तोः इति किमपि इति सप्त इति षष्ट्यन्त
रूपं
विभक्तिरूपं खलु
आम्
तोः तर्हि इदानीं तत्र रामस्य इति अस्ति चेत् तत् षष्ठी अस्ति किन्तु प्रथमविभक्तिरूपं किम् इत्युक्ते रामः इति वदामः खलु तथैव तोः इति षष्ठी विभक्तिरूपम् अस्ति प्रथमविभक्तिरूपं किम् अस्ति
तत्र सूत्रे तत्तु न दत्तं
न किन्तु भवती वदतु
तत्र तकारस्य स्थाने
भगिनि तोः इति षष्ट्यन्तं तर्हि प्रथमविभक्तिरूपं किं
तो तस्य तोः इति शब्दस्य प्रथमान्तरूपं वा तः इति तः वा तः तु तु वा
भगिनि अवगतं वा
तुः
इत्युक्ते किं
तुः इत्युक्ते किं न जानामि ओके ओके
तुः इत्युक्ते तवर्गः कुः इत्युक्ते कवर्गः इति खलु तदेव पाणिनिसूत्रे तत्र तथैव तत्र व्यवहारः भवति खलु
करेक्ट्
तर्हि तुः इति तस्य षष्ट्यन्तं तोः खलु गुरुः गुरुः इति पदस्य षष्ठीरूपं
गुरोः
तथैव तुः तोः लि इति सप्तम्यन्तं द्विपदमिन्तं सूत्रं हा इदानीं
अनुवृत्तिसहितसूत्रं तोः पवर् परसवर्णः लि संहितायाम् इत्युक्ते तवर्गस्य परे यदि लकारः अस्ति चेत् तकारस्य स्थाने परसवर्णः लकारस्य परसवर्णः ल इति तदेव आयाति तकारस्य स्थाने लकार आयाति परसवर्णः लकार तकारस्य स्थाने लकार आयाति
अस्तु तत्र उदाहरणं पश्यतु अग्रे अपि पठतु
त थ द ध एभ्यः परो लकारः अव्यवहितः चेत् जस्त्वं कृत्वा दकारः तदा तोर्लि इत्यनेन लकारादेशः त थ ध ध एभ्यः परः लकारः अव्यवहितः चेत् इत्युक्ते अव्यवहितम् इत्युक्ते किं महोदय अव्यवहितः
न उक्तम् अनुक्तम्
लकारः अनुक्तं वा अव्यवहित चेत्
हा अव्यवहित इत्युक्ते अनुक्तं तथा दध एभ्यः परो लकारः अव्यवहितः चेत् जस्त्वं कृत्वा आं भगिनि अव्यवहित इत्युक्ते अनुक्तम् इति
अनुक्तम् ओके अनुक्तं चेत् जस्त्वं कृत्वा दकारः आयाति तदा तोर्लि इत्यनेन लकारादेशः नावगतवती तत् किं वदति तत्र
अग्रे तत्र उदाहरणं पश्यतु भगिनि
तत् योगः लयः तत्र तकारस्य परे लकार आयाति एतत् सूत्रं वदति तोः तकारस्य स्थाने लकार आदेशः भवति इति तत् तद् भवति प्रथमतः तद् भवति तद् भवति तत्पश्चात् दकारस्य स्थाने लकारः तल् लयः इति परन्तु तत् तकारस्य स्थाने दकार किमर्थं तत् करणीयम् इति न अवगतवती जस्त्वं किमर्थं करणीयम् इति
पदान्ते जस्त्वं भवति खलु भगिनि सर्वदा
ओके जलां जशोन्ते इत्यनेन
जलां जशोन्ते इत्यनेन
नित्यं तदेव करणीयम् इति वा ओके ओके
इति मन्ये
तत् तद् भवति
तदेव भाति
ओके तदेव तद् तत् प्रथमतया जलां जशोन्ति इत्यनेन तद् भवति तत्पश्चात् तवर्गस्य कोऽपि वर्णः तत्र अस्ति चेत् तत्परे लकारः अस्ति चेत् तस्य स्थाने लकार आयाति तल् योगः लयः भवति तल् लयः इति भवति
इति दत्तं भगिनि सत्यं अस्तु अग्रे
नकारात् परो लकारः अव्यवहितश्चेत् नकारस्य परसवर्णः नकारात् परे लकारः अव्यवहित चेत् नकारस्य परसवर्णः अनुनासिकलकारः भवति अस्तु यदि पद अन्ते नकारः अस्ति चेत् नकारात् परं लकारः अस्ति चेत् तत्र नकारस्य परसवर्णः अनुनासिकलकारः भवति इत्युक्ते न स्थाने विद्वालं लिखति इति रूपम् आयाति नकारस्य स्थाने लकारस्य अनुनासिकवर्णः विद्वां लिखति इति
लिखति इति इति अस्ति अस्तु अस्तु तर्हि तत्र प्रायशः तत्र पुस्तकेपि तथा उदाहरणं पश्यामः तत्र प्रायशः किञ्चित् अधिकं स्पष्टं भवेत् इति मन्ये तत्र रे रकारः किमर्थं न दत्तम् इति मम मनसि न स्पष्टं किन्तु
रकारस्य अनुनासिकः नास्ति महोदय यथा भवान् उक्तवान् अनुनासिकवर्णः नास्ति रेफस्य कृते
हा किन्तु तत्र यै परे इति अस्ति खलु भगिनि
इत्युक्ते यै इति कपै पर्यन्तं गच्छति महोदय य आरभ्य यवरल णमङ्गणनं जभै तत्सर्वं भूत्वा तत्र कपै कपचट चटतौ कपै पर्यन्तं यै प्रत्याहारः भवति एते सर्वे यै प्रत्याहारे सन्ति किन्तु एते तत्र किम् एक्सेप्शन्स् भवन्ति
अतः एव तत्र किमर्थं तस्य किमपि तत्र समाधानं न दत्तम् इति यतोहि तत्र हाय वैरट् तत्र य तदनन्तरं बकारः तदनन्तरं
बकारः
तर्हि तत्र पूर्वं तत्र यकारः बकारः लकारः अस्ति चेत् किम् इति दत्तं तत्र किमपि साधारणतया भवति खलु भगिनी तत्र सुरुक्मोदयस्य करपत्रे
रेपस्य नास्ति इति वदनीयम् आसीत् वा महोदय
तत्र एकं वाक्यं न्यूनातिन्यूनं भवेत् खलु इति मम शङ्का तावत् एव तत्र अहं न दृष्टवान् वा किमपि कुत्रापि उक्तं वा केवलम् अहं न दृष्टवान् इति मम सन्देहः तावदेव
रेफस्य अनुनासिका नास्ति लकारस्य वकारस्य यकारस्य तु अस्ति
तदा एव तत्र कार्यं भवति अस्तु
तदेव तत्र न उक्तम् इति भवान् वदति
तावदेव अस्तु अस्तु तत्र अस्तु तर्हि इदानीं तत्र पुस्तके किं दत्तमस्ति इति पश्यामः इदानीं पुस्तके दत्तमस्ति प्रायशः स्पष्टं भवेत् इति तर्हि तत्र नरेश् महोदय आरम्भं करोति वा
पुटसङ्ख्या किं
37 महोदय
37 अस्ति परस्वर्णसन्धि अस्तु प्रथम एतानि उदाहरणानि परिशीलत अनुस्वारसहित अकार अस्ति अकारयोग कित् कितः अतः अ अकारयोग अनुस्वारस्य स्थाने आगच्छति तत्तु कवर्गस्य पञ्चमवर्णः अस्ति ङ स अ योग योग क योग इतः तत् अङ्कितः भवति अग्रे अनुस्वारसहित भू भूम् भूम् योग भू योग अग्रे जकार अस्ति अतः चवर्गस्य पञ्चमवर्ण ञ आगच्छति भू योग ञ योग जकार योग अ योग ते भुञ्जते इति अग्रे मुञ्ज् अनुस्वारः सहित मु योगच्छति मु योग अत्रापि परे चकारः अस्ति अतः चवर्गस्य पञ्चमवर्ण ञ आगच्छति मु योग ञ योगच्च योग अ योगति मुञ्च भवति अग्रे लुन् तत् अनुस्वारः सहित लु अस्ति योगाठति अत्र परे ठकार अस्ति अतः टवर्गस्य पञ्चमवर्ण न आगच्छति लु योग न योगठ योग अ योगति लुण्ठति भवति
अस्तु महोदय इदानीं तत्र गीतायाः श्लोकः अपि अस्ति तत् एकवारं पठति वा तत्र लुण्ठति इति
पश्यामि कुत्र अस्ति
श्लोक 2.11 श्लोक अस्ति अयनेषु च सर्वेषु यथा भागम भागम अवस्थिता भीष्मेव भिरक्षन्तु भवन्तः सर्वं सर्वः एव हि
कुत्र अस्ति
अशोच्यान्
द्वितीय ओ दिस् इस् चाप्टर् वन् ओ ओके ओके द्वितीय
भवती प्राप्तवती वा कुत्र अस्ति भगिनि तत्र तु
अत्र
सत्यं वा लुण्ठति इति अस्ति वा तत्र
लुण्ठति इति
नास्ति महोदय न त्वे वा
कदाचित्
नासं न त्वं नेमे जनाधिपाः न चैव न भविष्यामः सर्वे वयमतः परं न लुण्ठति
2.11 भगिनि
2.11 डजन्ट् हेव् लुण्ठति
11 लुण्ठति इत्युक्ते राब् इति खलु तर्हि तत्र लुण्ठनं किन्तु तत्र कुत्र भवेत् तत्र
अन्वेषणमपि कृतवती तत् गीता सूपर् सैट् मध्ये महोदय लुण्ठति इति किमपि न आगतं
न दत्तं अस्तु तर्हि तत्र अस्तु तर्हि तत्र किमपि नास्ति अस्तु तर्हि भगिनी भवती एव तत्र अग्रिमं करोति वा तत्र श्लोकमपि अस्ति तत् अत्र प्रायशः भवेत्
आम् महोदय तत्र किं दशमे श्लोके दशमे अध्याये सप्तमश्लोकः अस्तु
एकवारं पश्यामः यदि अस्ति इति वा तत्र अविकम्पेन सोविकम्पेन
सोविकम्पेन
सोविकम्पेन इति अस्ति तत्र अस्तु तत्र एतां विभूतिं योगं च मम यः वेत्ति तत्त्वतः सोविकम्पेन योगेन युज्यते नात्र संशयः तर्हि तत्र एकवारं श्लोकरूपेण पठामि एतां विभूतिं योगञ्च मम यः वेत्ति तत्त्वतः सोविकम्पेन योगेन युज्यते नात्र संशयः सोविकम्पेन सः इति अविकम्पेन इति वा तत्र
सत्यं सत्यम् अविकम्पेन
किन्तु हा तत्र आमाम् अस्ति सः अविकम्पेन तत्र अविकम् इति योगः पेन इति इत्युक्ते तत्र कम्पेन पदस्य मध्ये अतः अवि तत्र मकारः कथम् आगतं तत्र पूर्वं किं तत्र परसवर्ण इत्युक्ते पकार पवर्गीय पवर्गीय व्यञ्जनं व्यञ्जनस्य आदेशः भवेत् अनुस्वरस्य स्थाने अतः मकारः पवर्गीय अनुनासिकव्यञ्जन व्यञ्जनं मकारः अनुस्वरस्य स्थाने आदेशः भवति अतः अविकम्पेन इति भवति अपि च श्लोके तु तत् तस्य अर्थः एतां विभूतिं योगं च मम यः वेत्ति तत्त्वतः सः अविकम्पेन योगेन युज्यते तत्र संशयः नास्ति इति तत्र अविकम्पेन इति किम् इति स्टडि इति अस्ति महोदय अविकम्पेन इत्युक्ते हा तस्य दृढता अस्ति दृढनिश्चयेन योगेन इत्युक्ते यः एतां विभूतिं योगं च मम यः वेत्ति जानाति तत्त्वतः सः दृढनिश्चयेन योगेन युज्यते तत्र संशयः नास्ति इति भगवान् वदति तत्र तस्मात् पूर्वं बहु किमपि उक्तमस्ति तत्र अविकम्पेन इति पदस्य अर्थः भवति तत्र महोदय
समीचीनं भगिनि नाम तत्र अत्र वाक्यस्य तत्र आकृतिः तत्र यः सः इति वाक्यः
खलु यः सः सत्यं हा तत्र अन्वय अन्वयसहित पठामः चेत् यः मम एतां विभूतिं च योगं तत्त्वतः वेत्ति सः अविकम्पेन योगेन युज्यते अत्र संशयः नास्ति इति वदति
समीचीनं भगिनि अत्र युज्यते युज्यते इति तत्र कर्मणि
हा योगेन योगेन युज्यते युज्यते तत्र विशेषविशेषणम् इति मन्ये योगेन कीदृशेन योगेन इत्युक्ते अविकम्पेन योगेन युज्यते सः तत्र संशयः नास्ति इति
नास्ति युज्यते इति कर्मणि खलु
कर्मणि
हा तर्हि तत्र सः अविकम्पेन योगेन तत्र अविकम्पेन इति एकनिमिष त्यजामः तत्र सः योगेन युज्यते इति भवति वाक्यं किन्तु कर्मणि अस्ति खलु
किन्तु किन्तु तत्र कर्मणि अस्ति चेत् सः इति न भवति तेन इति भवति
योगेन इति अस्ति
योगेन युज्यते योगेन इति तत्र कर्तृपदं भवति तृतीयाविभक्त्याम्
इति
अविकम्पेन योगेन युज्यते आम् आम् आम्
सः इति कर्मपदम्
आम्
योगेन योग योगः तं तत्र युज् धातोः तत्र किम् अस्ति युज् धातोः धातोः तत्र क्रियापदं किम् अस्ति युज्
युज् इति युङ्क्ते इति भवति इति मन्ये महोदय
यतः भुज् खलु प्रायशः
इति मन्ये आम् आम् पूर्वं दृष्टवती
अत्रैव अस्माकम् अभ्यासः
आम् युज् इति युङ्क्ते इति मन्ये कर्तरिप्रयोगे अथवा तत्र युज् इति दिवादिगणे अपि अस्ति तत्र आत्मनेपदी भवति युज्यते इति दिवादिगणीयधातुः इति कृत्वा युज्यते इति भवति किन्तु युजिर् अस्ति चेत् तत्र भिन्नरूपं युनक्ति इति भवति
यतोहि तत्र कम्बैन् इति अस्ति खलु
आम् दिवादिगणीय अर्थः भिन्नः तत्र आम् रुधादिगणीय अपि च तत्र एव रुदादिगणीय तर्हि युनक्ति इति भवति महोदय युङ्क्त इति आत्मनेपदी अपि अस्ति
तस्मिन्नेव उभयपदी अस्ति अतः
उभयपदी अस्ति
युङ्क्ते अथवा युनक्ति
युङ्क्ते अथवा युनक्ति कर्मणि युज्यते इति भवति
युज्यते इति उत्तमम् इदानीं मनसि स्थापनीयं युनक्ति युङ्क्ते इति
युनक्ति युङ्क्ते आम्
युनक्ति युङ्क्ति समीचीनं भगिनी धन्यवादः
धन्यवादः महोदय
अस्तु अग्रे अपि पठतु भगिनी एतेषु उदाहरणेषु इति अस्ति
एतेषु उदाहरणेषु अपदान्तात् अनुस्वारात् परतः वर्गीयव्यञ्जनम् अस्ति तस्मिन् परे अनुस्वारस्य स्थाने तद्वर्गस्य पञ्चमः वर्णः आदेशः सम्पन्नः एतेषु उदाहरणेषु तत्र वयं दृष्टवन्तः अपदान्तात् एते सर्वे अपदान्तानि पदानि इत्युक्ते तत्र अङ्कितः भुञ्जते मुञ्चति लुण्ठति अविकम्पेन इति तत्र सर्वत्र पदस्य मध्ये सन्धिः भवति. अतः अपदान्ते इति कृत्वा अनुस्वारात् परतः वर्गीयव्यञ्जनम् अस्ति. तत्र अनुस्वारस्य ययि परसवर्णः इति सूत्रेण एतद् भवति. अपि च नित्यं पदस्य मध्ये नित्यं भवति. तस्मिन् परे अनुस्वारस्य स्थाने तद्वर्गीयपञ्चमवर्णः आदेशः सम्पन्नः भवति इति पठितवन्तः. तदेव तत्र उदाहरणेषु दत्तमस्ति.
समीचीनं भगिनि, धन्यवादः. अस्तु अग्रे तत्र वेद भगिनि. वेद भगिनि.
हा महोदय, अग्रे पठामि वा? एतानि उदाहरणानि परिशीलयत. शुभं योग शुभं योग करोति. शुभ योगः अनुस्वारस्य स्थाने कवर्णस्य सवर्णः अस्ति. अनुस्वार अनुनासिकसवर्णः अस्ति ङकार. शुभयोगः ङ योगः क योगः रोति. शुभं तत्र वा पदान्तस्य इति सूत्रमपि कार्यं करोति. तत्कारणेन तत्र शुभं रूपद्वयम् आयाति. एकत् रूपम् एकं रूपमस्ति शुभं करोति, अन्यत् रूपमस्ति शुभं करोति. ङकार आयाति अन्यत् रूपम्
एकस्मिन् शुभं करोति
कार्यं करोति.
एकस्मिन् तत्र प्रथमपदे सन्धिकार्यम् अभवत्. द्वितीय
तदेव तिष्ठति.
अतः विकल्पेन सन्धिकार्यं भवति इति. समीचीनं भगिनि, अग्रे.
महतीं योगः चमूं. तत्रापि महतीम् इति पदमस्ति. तस्य अन्तिम अनुस्वारस्य स्थाने परे चकार अस्ति. चकारस्य सवर्णः अस्ति. तत्र च च अनुस्वा नकार नकार किं वदामि नकार महति न योग च योग अमुं महतीं चमूम् इति रूपम् आयाति. एकरूपमस्ति महती चमूम्. अन्यत् सन्धिः नै भवति, केवलं तदेव तिष्ठति महतीं चमूम् इति रूपम्. ऋषिकेशं योगः तदा. तत्रापि ऋषिकेशमिति पदमस्ति. तत्कारणेन अनुस्वारस्य स्थाने तवर्णस्य परसवर्णः अस्ति, अनुनासिकवर्णः अस्ति. तत् नकारायाति. ऋषिकेश योग नकार योग तकार योग अदा. ऋषिकेशन् तदा ऋषिकेशन् तदा एकरूपमस्ति सन्धिकार्यं भूत्वा. अन्यत् रूपमस्ति ऋषिकेशं तदा. यत् उक्तं तदेव अस्ति. कोऽपि सन्धिकार्यं तत्र न भवति इति.
समीचीनं भगिनि, तावदेव. अस्तु, इदानीं अग्रे तत्र
ज्वलनं पतङ्गा इति पठामि वा?
पठतु पठतु भगिनि.
ज्वलनं योगः पतङ्गाः. तत्रापि ज्वलनं तत्र नकारस्य परे अनुस्वारः अस्ति. अपि च परे पवर्गस्य वर्णः अस्ति. तदेव तत्र परसवर्णः भवति. प प भ म ज्वलन् योग इं मकार योगः पतङ्गाः. तज्ज्वलनं पतङ्गाः इति रूपमायाति. अन्यत् रूपमस्ति ज्वलनं पतङ्गाः एव. केवलं तदेव अस्ति. वा पदान्तस्य सूत्रं तत्र कार्यं करोति. किमर्थं चेत् पूर्वपदे पदान्त अस्ति इति कारणतः तत्र वा परसव वा किं वदामि तत्र तस्य सूत्रस्य प्रसक्तिः अस्ति वा पदान्तस्य. तत्कारणेन तत्र रूपद्वयम् आयाति. एकरूपं सन्धिरूपम्, अन्यत् रूपमस्ति तद् यदस्ति तत् पदं तदेव तिष्ठति.
हा समीचीनं भगिनि. हा इदानीं तत्र श्लोकस्य विवरणं किञ्चित्.
श्लोकं 1.3 महती च
न न न न 11
महती चमू 1.3
पूर्वं तत्र प्रथमे अध्याये तत्र बहुवारं तत्र श्लोकान् पठितवन्तः
अस्तु 1.21 तत् पठामि
तदपि त्यजामः
तदपि त्यजामः 11.29 किमस्ति 29 अस्ति ज्वलनं पतङ्गाः ओके यदा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समुद्धवेगाः तथैव नाशाय विशन्ति लोकात् तवापि वक्त्राणि समृद्धवेगाः यदा प्रदीप्तं ज्वलन्तं पतङ्गा तत्र ज्वलनं पतङ्गा तद्रूपमेव दत्तं महोदय सन्धिरूपं न दत्तं तत्र
समीचीनं भगिनि
तदेव दत्तं यदा यथा प्रदीप्तं ज्वलनं पतङ्गा प्रदीप्तं ज्वलनं पतङ्गा पतङ्गा इत्युक्ते दत् फायर् फ्लै फायर् फ्लै
स्मात्
अच्छा ओके मतलब् वाट् हेपन्स् इस् दट् यदा प्रदीप्तम् इत्युक्ते दीपः
भगिनी तत्र किञ्चित् विवृणोतु तत्र प्रदीप्तं ज्वलनम् इति किं भवति तत्र
यदि प्रदीप्तं ज्वलनं तत्र विशेषणरूपमस्ति विशेषरूपमस्ति यदि प्रदीप्तं ज्वलनं पतङ्गा
इदानीं तत्र पतङ्गा इति किं भवति तत्र
पतङ्गा इति
नाम तत्र भवती किमर्थं प्रदीप्तं ज्वलनं पतङ्गा इति उक्तवती तत्र प्रदीप्तं ज्वलनम् इति विशेषणविशेषभावः तत्र तदनन्तरं पतङ्गा क्रियापदं किमस्ति अस्मिन् श्लोके
यथा प्रदीप्तं ज्वलनं पतङ्गा अस्ति इति वा अस्ति
भवती पठतु श्लोकं
यदा यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः विशन्ति तत्र विशन्ति इति क्रियापदम् अस्ति
क्रियापदम् उत्तमं भगिनि इदानीं कर्तृपदं किम् अस्ति
तत्र पतङ्गा
पतङ्गाः समीचीनं पतङ्गाः विशन्ति विशन्ति नाम प्रविशन्ति नाम
कुत्र प्रविशन्ति नाशाय समृद्धवेगाः
तत्र कर्मपदं किम् अस्ति अत्र अस्मिन्
प्रदीप्तं ज्वलनं
प्रदीप्तं ज्वलनं ज्वलनं नाम दीपम् इति
दीपम् इति वा
अथवा अग्निः
अग्निः अस्तु नाशाय किमर्थम् इत्युक्ते नाशाय विशन्ति प्रदीप्तं ज्वलनं
कर्तृपदं तत्र कर्तृपदं कर्मपदं क्रियापदं रूपेण वदतु
पतङ्गाः प्रदीप्तं ज्वलनं विशन्ति
समीचीनम् इदानीं किमर्थं विशन्ति
नाशाय
तत्र तेषां नाशः भवति इति इति तद्भवति नाशाय अस्तु इदानीं तत्र अग्रे पदं
समृद्धवेगाः तत् किमस्ति तत् पदं समृद्धवेगाः
वेगाः समृद्धवेगाः
वेगाः इत्युक्ते वित् स्पीड्
समीचीनं किन्तु तत्र पदं किम् अस्ति वाक्ये
किं पदमस्ति तत् किं पदमस्ति
अन्वयः कुत्र भवति तस्य अन्वयः
कुत्र भवति पतङ्गाः समृद्धवेगाः इति
इति उत्तमं भगिनि तथैव नाम बहुवचने अस्ति कर्तृपदम् अस्ति बहुवचने प्रथमाविभक्त्याम् अस्ति खलु पतङ्गाः अपि बहुवचनं समृद्धवेगाः अपि बहुवचनं
समृद्ध
तत्र तेषां तत्र वेगः तत्र समृद्धः नाम तत्र अधिकः अस्ति
अधिकः अस्ति
अतः समृद्धवेगः इति तत्र यस्य अथवा येषां वेग तत्र यस्य वेगः समृद्धः अस्ति सः समृद्धवेगः किन्तु अत्र बहुवचने अस्ति समृद्धवेगाः इति बहुव्रीहिः
यथा पतङ्गाः समृद्धवेगाः प्रदीप्तं ज्वलनं विशन् नाशाय प्रदीप्तज्वलनं विशन्ति
इति अस्ति उत्तमं भगिनी हा इदानीम् इदानीं तत्र यथा इति एकः भागः अर्थतन्त्रं तथा एव इति इदानीं तत्र
तथैव नाशाय विशन्ति लोकात् तवापि वक्त्राणि समृद्धवेगाः तथैव नाशाय विशन्ति लोकास् इत्युक्ते लोकाः नाशाय विशन्ति कुत्र तवापि वक्त्राणि समृद्धवेगाः तवापि वक्त्राणि तव वक्त्राणि समृद्धवेगाः तव वक्त्राणि वक्त्राणि इत्युक्ते किं महोदय वक्त्रं मौत्
उत्तमं
तवापि वक्त्राणि समृद्धवेगः तथैव तदेव लोकाः तव वक्त्राणि समृद्धवेगाः लोकाः समृद्धवेगाः तव वक्त्राणि नाशाय विशन्ति
इति अस्ति उत्तमं भगिनि हा तथैव अस्ति उत्तमं हा
सो वाट् यु मीन्स् टु से पतङ्गा कम्पेरिसन् आफ़् पतङ्गा वित् मनुष्य क्रीचर् किं वदामि आल् लोकाः
केवलं मनुष्यः इति नास्ति
नास्ति
लोकाः लोकाः एव समस्तलोकं
समस्तलोकं
किं भवति
तव वक्त्राणि
भगवतः
तव मुखे
भगवतः वक्त्रं विशन्ति प्रविशन्ति तत्र एतत् प्रायशः तत्र विश्वरूपदर्शनं खलु अत्र अतः तत्र सर्वे लोकाः तत्र प्रविशन्ति
तव मुखे विशन्ति
प्रविशन्ति यथा तत्र पतङ्गाः ज्वलनं प्रदीप्तं ज्वलनं प्रविशन्ति समृद्धवेगाः भूत्वा तथैव लोकाः अपि समृद्धवेगाः भूत्वा तत्र प्रविशन्ति तव वक्त्राणि प्रविशन्ति इति अस्ति समीचीनं भगिनि हा उत्तमम् अस्तु अग्रे तत्र हा समीचीनं भगिनि अस्तु अग्रे तत्र नरेश् महोदय अग्रे
अस्तु अग्रे एतेषु उदाहरणेषु पदान्तात् अनुस्वारात् परतः वर्गीयव्यञ्जनम् अस्ति तस्मिन् परे अनुस्वारस्य स्थाने तद्वर्गस्य पञ्चमवर्णः आदेशविकल्पेन सम्पन्नः तत्तु अभवत् पञ्चमवर्ग पञ्चमवर्ण आगच्छति एतानि उदाहरणानि
विकल्पेन
आगच्छति
मुख्यांशः खलु नाम पदान्ते अस्ति चेत् विकल्पेन भवति इति खलु महोदय
आम् आम्
अस्तु अग्रे
एतानि उदाहरणानि परिशीलयत संयोगयमः संयमः अत्रापि तत् अनुनासिक
भवान् पठितवान् तदेव
अनुनासिक यकार आगच्छति संयमः अपि च संयमः
तत्र एकः संशयः अस्ति तत्र प्रायशः तत्र यथा तत्र अत्र सकारस्य उपरि चन्द्रबिन्दुः
चिह्नं आं महोदय चिह्नं भिन्नम् अस्ति करपत्रे पुस्तके भिन्नमस्ति
खलु भगिनि तत्र
करपत्रे भिन्नस्थाने तत्र चन्द्रमा बिन्दुः अस्ति परन्तु पुस्तके भिन्नस्थाने अस्ति सकारस्य उपरि तत् चिह्नम् अस्ति पुस्तके
टङ्कणदोषः महोदय तत्र
टङ्कणदोषः
तत्र यकारस्य उपरि एव भवेत् चन्द्रबिन्दुः किन्तु कदाचित् तादृशं किं तत्र टङ्कणेन कर्तुं न शक्नुमः
अतः अत्र एतत् दत्तम्
आम् अनुस्वारस्य स्थाने अनुनासिक यकारः आदेशः भवति अतः यकारस्य उपरि एव भवेत्
उपरि एव भवेत् हा अतः एव तत्र किमर्थम् उत्तमं धन्यवादः तत्र स्वरूपमहोदयस्य करपत्रे प्रायशः तत्र यदि एकवारं तत्र मुद्रणदोषः भवेत् किन्तु अनेकवारं तत्र न भवति खलु तत्र
न सः सम्यक्तया एव कृतवान्
कृतवान् अतः एव तत्र अहं चिन्तयामि किमर्थम् अस्तु समीचीनं धन्यवादः भगिनि अस्तु नरेश महोदय अग्रे
अग्रे संयोगवादं संवादं संयोगलापः संलापः विकल्पेन संयमः संवादं संलापं संलापं भवति
अस्तु अग्रे
एतेषु उदाहरणेषु पदान्तात् अनुस्वारात् परतः यकार वकार लकार इत्येते वर्णाः सन्ति तत्र अनुस्वारस्य स्थाने यम वम लम इत्यादेश विकल्पेन सम्पन्नः
तत्र श्लोकः अस्ति मध्ये द्वितीये उदाहरणे तत्र श्लोकं पठित्वा
अष्टादश अध्याये अष्टादश
सप्तदश
उत्तममस्ति
न न क्षम्यतां सप्तदश
सप्ततिः
सप्ततिः
अत्र अस्ति सप्ततिः अध्येष्यते च इमं धर्म्यं धर्म्य संवाद संवादमायवयोः ज्ञानय ज्ञान तेनाह मिष्ट स्यामिति मे मिति
मतिः
मतिः अधि इष्यते च य इमं धर्म्यं धर्ष्यं धर्ष्यं
धर्म्यं
धर्म्यं धर्म्यं महोदय
ओ अस्तु धर्म्यं संवादम् आवयोः ज्ञानय ज्ञान अज्ञान ज्ञानी अज्ञाने अज्ञेन तेनाहमिष्टः स्यामिति मे मतिः
महोदय तत्र प्रायशः तत्र क्रियापदम् इति किम् इति प्रथमतया वदतु महोदय तत्र
अध्येष्यते
अध्येष्यते इति समीचीनं हा अध्येष्यते तत्र उपसर्गः अस्ति खलु अधि इति
अधि इष्यते
हा अपि तत्र लकार तु तत्र भविष्यत्कालरूपमस्ति
अध्येष्यते
तत्र तत्र अधीते इति अध्ययनम् अधीते इति तस्य तत्र
इश धातु वा इण् गतौ इड् इङ् अध्ययने
सत्यं भगिनि हा तथैव अस्ति तदेव अस्ति तत्र लृट् लकारः अध्येष्यते
अध्येष्यते
अध्येष्यते प्रथमपुरुषे एकवचने तर्हि तत्र कर्तृपदं किमस्ति
आवयोः
न न महोदय कर्तृपदं महोदय
कर्तृपदम् इमं
पुनः एकवारं पठतु
इमं
न न आरम्भतया पठतु तत्र
अधि इष्यते च य इमं धर्म्यं संवादम् आवयो यः यः
हा उत्तमं यः समीचीनं नाम अत्र पुनः तत्र यः सः इति यः सः इति आकारम् आकृतिः तत्र यः अध्येष्यते तत्र अध्येष्यते तत्र नाम अधीते नाम अध्ययनं करिष्यति
करिष्यति
किं तर्हि अधीते अथवा अध्ययनं करोति इति चेत् तत्र कर्मपदं भवति खलु तत्र किं
संवाद
संवादम् इति समीचीनं संवादम् इदानीं तत्र संवादम् इति तस्य कीदृशं संवादम्
इमं धर्म्यं संवादं
संवादम् इमं
धर्म्यं
संवादं नाम धर्मविषय संवादं नाम सम्भाषणं वादं सम्भाषणं संवादम् अपि तत्र आवयोः आवयोः इत्युक्ते
आवयोः मध्ये
आवयोः सम्भाषणम् आवयोः मध्ये यत् सम्भाषणम् अथवा यं सम्भाषणम् अधीते अध्येष्यते नाम तस्य अध्ययनं करोति नाम भगवद्गीतां यः भगवद्गीतायाः अध्ययनं भगवद्गीता इत्युक्ते तत्र भगवान् अपि अर्जुन तयोः एव संवादः खलु यः संवादं
यः संवादम् अधि इष्यते
सः सः किं भवति सः
सः ज्ञानिज्ञेन
ज्ञानयज्ञेन
ज्ञानयज्ञेन तेनाह मिष्ठः स्यामिति मे मतिः
तत्र मे मतिः इति मे मतिः इति
मे मतिः
इत्युक्ते मम मतिः इत्युक्ते
मे मतिः
मतिः इत्युक्ते तत्र
मम अभिप्रायः
अभिप्रायः मम चिन्तनं समीचीनं मे मतिः मम चिन्तनं तत्र मे इति तत्र चतुर्थी भवति अथवा
षष्ठी
तत्र देहि मे द्राहि मे तत्र तादृशं देहि तत्र चतुर्थी तत्र मे मतिः मम मतिः इति मम चिन्तनमस्ति किम् इति मम चिन्तनमस्ति तत्र ज्ञानयज्ञेन तेन ज्ञानयज्ञेन
अहमिष्टः
स्यां स्याम् इति तत्र विधिलिङ्ग् खलु तेन अहं ज्ञानयज्ञेन इष्टः स्याम् नाम तेन सः इति पूर्वमासीत् खलु तत्र यः एतं संवादम् अध्येष्यते सः इति स्थाने तत्र तृतीया अपि भवितुमर्हति अन्यत् विभक्ति अन्या विभक्ति अपि भवितुमर्हति खलु तेन पुरुषेण अहं ज्ञानयज्ञेन इष्टः स्याम्
इष्टः स्याम् इति मे मतिः
इति मम मतिः इष्टः स्याम् नाम तत्र मम पूजा तत्र तेन पुरुषेण मम पूजा भवति मार्गेण मम पूजा भवति नाम ज्ञानयज्ञेन मम पूजा भवति इति ज्ञानयज्ञेन मम पूजा भवति नाम सः ज्ञानयज्ञमार्गेण तत्र मम पूजां करोति नाम तत्र सः ज्ञान यज्ञमार्गेण हा तत्र तेन तत्र भगवतः आराधनं करोति इति मम मतिः
महोदय तत्र संवादः तत्र सूर्य तत् चिह्नं तद् नास्ति तत्र भगवद्गीतायां मध्ये परन्तु तस्य उपयोगः कुत्र भवति साधारणतया महोदय
न जनं भगिनि यतोहि विकल्पेन दत्तमस्ति खलु
वेदा उपरि
तत्र अहं न दृष्टवान् भगिनि किन्तु प्रायशः तत्र पुराणेषु ग्रन्थेषु तत्र प्रायशः तत्र चन्द्रबिन्दोः चिह्नम् आसीत् वा इति नाम तत्र मुद्रणं तत्र मुद्रणे तादृशं नास्ति चेदपि तत्र यथा जनाः पूर्वं लिखन्ति स्म तदा प्रायशः तत्र चन्द्रबिन्दोः तत्र
उपयोगम्
आसीत् इति सन्देहः किन्तु सम्यक्तया न जानामि भगिनि
अस्तु महोदय
कदाचित् अधुना अपि तत् अनुनासिका प्रयुज्यते यथा पुंलिङ्गः
करेक्ट्
सत्यं सत्यं महोदय सत्यम् उत्तमम्
अहमपि दृष्टवती तद्
उत्तमम् उत्तमं धन्यवादः महोदय उत्तममस्ति सत्यं समीचीनं महोदय अस्तु तर्हि उत्तरं प्राप्तं भगिनि अस्तु इदानीं तत्र धन्यवादः महोदय इदानीं तत्र शुभ भगिनि अग्रे
आं महोदय अग्रे इदानीं तत्र एतानि उदाहरणानि खलु
न एते उदाहरणे
परिशीलयत
एते उदाहरणे परिशीलयत श्रद्धावान् योगः लभते श्रद्धावान् तत्र नकारः अन्ते तस्मात् परं लकारः परलकारः लभते इत्यस्य ल योगः अभते इति दत्तम् इदानीं तत्र नकारस्य स्थाने अनुनासिकलकारादेशो भवति तत्र किं दृष्टवन्तः लकारादेशो भवति नकारस्य स्थाने एव यथा विद्वान् लिखति तत्र तोर्लि इत्यनेन इति किन्तु तत्र तु नास्ति तवर्गीय तवर्गीय अनुनासिकवर्णः अस्ति खलु श्रद्धावान् इति तवर्गीय अनुनासिकवर्णः तोर्लि इति सूत्रस्य कार्यं भवति तत्र
तत्र तोर्लि इति एव कार्यं करोति तत्र झष्ट्वं न भवति अत्र
तत्र न भवति यतोहि नकारः अस्ति अन्ते
नकारः अस्ति इति कृत्वा
आम् श्रद्धावान् अतः तत्र नकारस्य स्थाने अनुनासिकलकारादेशः श्रद्धावान् लभते इति रूपं सिद्ध्यति अपि च तत्र तु नित्यं तोर्लि इति नित्यं कार्यं नित्यं तस्य अपि च तत्र श्लोकमस्ति चतुर्थे अध्याये नवत्रिंशत्तमं सूत्रं पठनीयं वा महोदय तर्हि चतुर्थे अध्याये नवत्रिंशत् श्रद्धावान् लभते श्रद्धावान् लभते ज्ञानं तत्परं संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिम् अचिरेणाधिगच्छति इति श्रद्धावान् लभते ज्ञानं तत्परः संयते संयतेन्द्रियः संयते इन्द्रियः संयतेन्द्रियः ज्ञानं लब्ध्वा परां शान्तिं चिरेण अधिगच्छति अचिरेण अचिरेण क्षमतां शान्तिम् अचिरेण अधिगच्छति तत्र श्रद्धावान् इति श्लोके अपि दर्शितं लकारः श्रद्धावान् लभते इति अनुनासिका चन्द्रबिन्देन दर्शितमस्ति लभते
समीचीनम्
आम् महोदय अहं जालस्थाने पश्यन्ती अस्मि तत्र तु अस्ति श्रद्धावान् लभते इति लकार अनुनासिकलकारः चन्द्रबिन्दुसहित ज्ञानम् इत्यस्य ज्ञानं तत्परः ज्ञानन्तरपर ज्ञानं तत्परः इति अस्ति ज्ञानं लभते श्रद्धावान् लभते ज्ञानं तत्परः संयते इन्द्रियः संयमः तत्र संयते इति संयते इन्द्रियः इत्युक्ते सः तादृशः भवति यः इन्द्रियाणि संयमे कृतवान्
इन्द्रियाणां
संयम पालितवान् इति
कृतवान्
खलु महोदय
सत्यं भगिनि सत्यं तत्र श्रद्धावान् इति मतु यस्य यस्य यस्मिन् श्रद्धा अस्ति
नास्ति आम् आम्
श्रद्धावान्
इति मतुप्रत्ययः श्रद्धावान्
प्रत्यय अपि संयतेन्द्रियः इति समासः यस्य
इन्द्रियः
तत्र तत्र
संयते इति वा
संयतानि सन्ति
संयतानि सन्ति
यस्य इन्द्रियाणि संयतानि सन्ति सः इति संयतेन्द्रियः
ज्ञानम्
इन्द्रियाणां संयमम्
इन्द्रियाणां संयमः अस्ति तस्मिन्
तादृशः श्रद्धावान् तादृशः भवेत् श्रद्धावान् अपि भवेत् सः
ज्ञानं लब्ध्वा परां
शान्ति लभते
हा श्रद्धावान् यः संयतेन्द्रियः अस्ति सः ज्ञानं लभते ज्ञानं तत्परः इत्युक्ते तत्र श्रद्धावान् लभते ज्ञानं तत्परः संयतेन्द्रियः इति दत्तम् अस्तु
तत्परः इति तत्र किमस्ति तत्परः इति एकनिमिषः पश्यामः तत्परः इत्युक्ते किमस्ति तत्र
तत्परं यस्य सः तत्परः इत्युक्ते तत्परं यस्य
तत्परः तत्र किमपि न दत्तम् ओ तत्परः इत्युक्ते तत्र श्रद्धावान् तत्परः इति तत्र
ज्ञानं लभते तत्परः वा यत्र
तत्र भगिनि पुनः तत्र तत्परः इत्युक्ते नाम सः डिवोटेड् टु दट् इति डिवोटेड् अस्ति इति नाम तत्र भिन्नभिन्न तत्र आङ्ग्लभाषां तत्र मेन् आफ् श्रद्धा also devoted and master of his senses tarhi tatra samyateendriyah who has put senses under control shaddhavan yasya shaddha asti api tatra devoted tatra tatparah iti devoted iti dattam asti bhagini
astu mohodaya
atah tatra tatparah samyateendriyah shaddhavan
shaddhavan
तत्र त्रयमपि अस्ति तत्र वदतु भगिनि.
मनुष्य का वह विशेषण है शायद. साधन
हाँ श्रद्धावान तत्र मनुष्यः इति पुरुषः इति स्वीकुर्मश्चेत् तत्र पुरुषः इति विशेष्यमस्ति चेत् श्रद्धावान् संयतेन्द्रियः तत्परः त्रयमपि विशेषणत्रयं तत्र इति अस्ति. सत्यं भगिनि. हा अस्तु अग्रे भगिनि. ज्ञानं लब्ध्वा
परां शान्ति इत्युक्ते तत्र पराम् इत्युक्ते शान्तिमित्यस्य विशेषणं भवति.
हा सत्यं. तस्य उपरि किमपि नास्ति. तस्य परा
हा पराम् किमपि पराशक्तिः इति अपि शृणुमः. हा ज्ञानं लब्ध्वा परां शान्तिम् इत्युक्ते तस्मात् परं किमपि तस्मात् उपरि कोऽपि शान्तिः नास्ति इति महोदय. परां शान्तिं
कापि कापि इति श्रीलिङ्गे शान्ति इति श्रीलिङ्गे
कापि कापि शान्तिः नास्ति तस्मात् परां परां शान्तिम् अचिरेण इत्युक्ते शीघ्रतया एव
शीघ्रतया
एव तस्मात् अधिगच्छति इत्युक्ते शान्तिम् अधिगच्छति प्राप्नोति
शान्तेः समीपं गच्छति अथवा तत्र प्राप्नोति इति
प्राप्नोति इति. आम्
समीचीनं भगिनि. तर्हि तत्र तत्र अत्र श्रद्धावान् लभते इति तत्र चन्द्रबिन्दुचिह्नम् अस्ति. अस्तु भगिनि
समीचीनम् अस्ति.
तर्हि वेदभगिन्याः प्रश्नस्य उत्तरद्वयं प्राप्तं. कुत्र भवति भवति एव अस्ति. समीचीनमस्ति. अस्तु तर्हि तत्र शुभभगिनी भवती एव तत्र अन्ते शान्तिमन्त्रं वदति.
आम् आम् महोदय. ॐ पूर्णमधः पूर्णमिदं पूर्णात् पूर्णमुदच्यते पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते. ॐ शान्तिश्शान्तिश्शान्तिः. हरिः ॐ श्रीगुरुभ्यो नमः. हरिः ओम्. धन्यवादः महोदय. नमस्कारः.
धन्यवादः महोदय.
धन्यवादः सर्वे.
धन्यवादः.
नमस्कारः. धन्यवादः. अग्रिमे वर्गे मिलामः तर्हि. धन्यवादः.
धन्यवादः.
धन्यवादः भगिनी.